क्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। अगजानन पद्मार्कं गजानन महर्निशम् अनेकदन्तं भक्तानां एकदन्तं उपास्महे। गजाननं भूतगणाधिसेवितं कपिद्धं भूफलचारुभक्षणं उमासुतं शोकविनाशकारकम्। नमामि विघ्नेश्वर पादपङ्कजं। सजयति सिन्धूरवदनो देवो यत्पादपङ्कजस्मरणम्। वासरमणिरिन तमसां राशीं नाशयति विघ्ननां। सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः लम्बोदरश्च विकटो विघ्ननाशो विनायकः। धूमकेतुर्गणाध्यक्षो पालचन्द्रो गजाननः। वक्रतुण्ड शूर्पकर्णो हेरम्बः कन्दपूर्वजः। षोडशैतानि नामानि यः पठेच्चनुयादपि विद्यारम्भे विवाहे च प्रवेशे निर्गमे तदा। सङ्ग्रामे सङ्कटै चैव विघ्नस्तस्य न जायते। विघ्नध्वान्ता निवारणैक तरणिर्विघ्नाटवीह्यववा। द्विघ्नव्यालकुलस्य मत्तगरुडो विघ्नेव पञ्चाननाः। विघ्ने तुङ्गगिरिप्रभेदना सविर्विघ्नाब्धिकुम्भोद्भवो। विघ्नाघौघघनप्रचण्डपवनो विघ्नेश्वरः पातु माम्। इति श्रीगणपतिवन्दनम्।